नमस्सर्वेभ्यः अद्य कोविदवर्गस्य ऊनविंशः पाठः जून् मासस्य एकविंशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो आदौ क्षमां याचे प्रायः मासकालं यावत् वर्गेषु विच्छेदः सञ्जातः भिन्नैः कारणैः किञ्चित् प्रवासः किञ्चित् स्वास्थ्यसमस्या कुलदेवतापूजा इत्यादि कारणेन प्रायः एकस्मात् मासात् आरभ्य पाठाः न आसन् अतः किञ्चिदिव पुनरावर्तनं कृत्वा अग्रे गच्छामः समासः शुक्रवासरेषु समासानां विषये अस्माभिः अध्ययनं क्रियमाणमस्ति अनेकस्य पदस्य एकपदीभवनं समासः इति समासस्य लक्षणम् रामः लक्ष्मणः च वनं गच्छतः इति वाक्यं भवति यत्र पृथक् पदानि भवन्ति रामः लक्ष्मणः च इति पदानि योजयित्वा रामलक्ष्मणौ वनं गच्छतः इति यदा प्रयोगः क्रियते तदा सः समासः इत्युच्यते इति वयं ज्ञातवन्तः सन्धेः समासस्य कः भेदः इत्यादि विषयानपि ज्ञातवन्तः समासः प्राधान्येन चतुर्धा भवति अव्ययीभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः इति समासस्य चत्वारः प्रभेदाः तत्र आदौ अस्माभिः तत्पुरुषसमासः अधीयते तत्पुरुषसमासे पुनः प्रभेदाः भवन्ति सामान्यतत्पुरुषः कर्मधारयः द्विगुः नञ्प्रभृतयः इत्येवं विभागाः तत्पुरुषसमासे सन्ति सामान्यतत्पुरुषे सप्तप्रभेदाः भवन्ति कर्मधारये नवप्रभेदाः द्विगौ त्रयः नञ्प्रभृतिषु पञ्चसमासाः भवन्ति सामान्यतत्पुरुषः प्रथमा द्वितीया इत्यादि प्रभेदैः विभक्तमस्ति पूर्वपदस्य विग्रहे पूर्वपदस्य विभक्तिम् आश्रित्य वयं प्रथमा तत्पुरुषः द्वितीया तत्पुरुषः इत्यादि व्यवहारं कुर्मः प्रथमा तत्पुरुषे पूर्वपदं प्रथमाविभक्तौ भवति पूर्व अपर अधर उत्तर अर्ध इत्येतानि पदानि पूर्वं भवन्ति उत्तरपदं तु अवयविवाचकं भवति पूर्वं ग्रामस्य पूर्वग्रामः अर्धं दिनस्य अर्धदिनम् इत्यादि उदाहरणानि भवन्ति द्वितीया तत्पुरुषे पूर्वपदं द्वितीया विभक्त्यन्तं भवति उत्तरपदं श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न एतेषु एकं भवति ग्रामं गतः ग्रामगतः कूपं पतितः कूपपतितः इत्यादीनि उदाहरणानि सन्ति तृतीया तत्पुरुषे बहवः नियमाः दृष्टाः पूर्वपदं कारणवाचकं भवति यथा विद्यायाः कारणेन यः मान्यः तत्र विद्यया मान्यः विद्यामान्यः इति भवति पूर्वपदं कर्तृपदम् अथवा करणपदं भवति उत्तरपदं च क्त प्रत्ययान्तं भवति कालिदासेन रचितं कालिदासरचितं हस्तेन लिखितं हस्तलिखितम् इत्यादि एवमेव अन्यान्य अपि उदाहरणानि सन्ति गुडेन मिश्रः गुणमिश्रः पित्रासमः पितृसमः इत्यादि चतुर्थी तत्पुरुषे उत्तरपदं बलीहित सुखरक्षित इत्येतद् भवति अथवा अर्थशब्देन अपि चतुर्थी तत्पुरुषः भवति बालेभ्यः अयं बालार्थः बालार्थ बालार्थम इत्यादि, देशाय हितम देशहितम, गवे रक्षितम गोरक्षितम इत्यादीनि भवन्ति। पंचमी तत्पुरुषे पूर्वपदं पंचम्यन्तं भवति, उत्तरपदं भयं भीतिः भीः भीतः इत्यादि भवति, चोरात् भयं चोरभयम् इति। षष्ठी तत्पुरुषे पूर्वपदं षष्ठ्यन्तं भवति, उत्तरपदं सामान्यतः यत्किमपि भवितुम् अर्हति, देवस्य आलयः देवालयः इति उदाहरणम्। सप्तमी तत्पुरुषे पूर्वपदं सप्तम्यन्तं भवति, उत्तरपदं शूर निपुण समर्थ इत्यादि अथवा शौण्ड कितव धूर्त इत्यादि भवति। अयं सामान्यतत्पुरुषः इत्युच्यते। कर्मधारयसमासे नवप्रभेदाः सन्ति, तत्र पूर्वपदम् अथवा उत्तरपदं कीदृशं भवति इति आश्रित्य नामानि दीयन्ते। यत्र पूर्वपदं विशेषणं भवति सः विशेषणपूर्वपदकर्मधारयः, नीलः मेघः नीलमेघः इति। यत् एवमेव उत्तरपदं विशेषणम् अथवा उभयमपि विशेषणं भवति, पूर्वपदम् उपमानवाचकं भवति, उत्तरपदं च साधारणधर्मं बोधयति, कुसुमम् इव कोमलं कुसुमकोमलम्। यत्र पूर्वपदम् उपमेयवाचकम् उत्तरपदम् उपमानवाचकं, तत्र उपमान उत्तरपदकर्मधारयः नरः व्याघ्रः इव नरव्याघ्रः। पूर्वपदं नाम सम्भावनापूर्वपदकर्मधारये नामधेयम् अप्रापर् नेम् भवति। अवधारणापूर्वपदकर्मधारये पूर्वपदे अवधारणं भवति, विद्या एव धनं विद्याधनम् इति। मध्यमपदलोपीसमासे पूर्वपदं समस्तपदं भवति, तत्र एकस्य भागस्य लोपः भवति, शाकप्रियः पार्थिवः शाकपार्थिवः इति। मयूरव्यंसकादिषु मिसलेनियस् समासाः योजिताः सन्ति इत्येवम् एते सर्वेपि कर्मधारयसमासाः। कर्मधारयसमासे पूर्व उत्तरपदयोः समानाधिकरण्यं भवति, समानं पदार्थं बोधयतः पूर्वपदम् उत्तरपदं च इति। ततः अग्रे नञ् प्रभृति समासाः अपि अस्माभिः दृष्टाः। तत्र पञ्चविधाः समासाः भवन्ति। नञ् तत्पुरुषे पूर्वपदं नञ् इति अव्ययं भवति, न इति निषेधार्थकम् अव्ययम्, न धर्मः अधर्मः इति। यत्र उत्तरपदम् उत्तरपदस्य प्रथमः वर्णः व्यञ्जनं भवति, तत्र अ इति श्रूयते। यदि उत्तरपदम् अजादि उत्तरपदस्य प्रथमः वर्णः स्वरः भवति, तदा तु अन् इति भवति, न आचारः अनाचारः, न आगमनम् अनागमनम् इत्यादि। कु समासे पूर्वपदं कु, कुत्सितार्थे निन्दार्थे कु इति अव्ययं, तदेव पूर्वपदं भवति, कुत्सितः पुरुषः कुपुरुषः इति। अत्रापि यदि उत्तरपदस्य आदौ स्वरः अस्ति तदा कु इत्यस्य स्थाने कत् इति भवति, कदन्नं कदश्वः इत्यादि उदाहरणानि। प्रादिसमासे पूर्वपदं प्रादिः, प्रादिः इत्युक्ते सामान्यतः उपसर्गः इति यद्वदामः, स एव प्रादिः, सः पूर्वपदं भवति चेत् प्रादिसमासः, शोभनं भाषितं सुभाषितम् इत्यादि। गतिसमासे च्वि इति भवति, अभूततद्भावे च्वि इति, गतिसम्यकं पूर्वपदं भवति, अशुक्लं शुक्लं कृत्वा शुक्लीकृत्य, तत्र समासे कृते त्वा प्रत्ययस्य स्थाने ल्यप् भवति, कृत्वा इत्यस्य स्थाने कृत्य इति भवति। उपपदसमासः यत्र विग्रहवाक्ये तिङन्तं भवति, समासे तु तत्र कृदन्तं भवति, विग्रहवाक्ये तिङन्तं भवति, तादृशः समासः उपपदसमासः कुम्भं करोति इति कुम्भकारः सूत्रं धरति इति सूत्रधारः इत्यादीनि उदाहरणानि दृष्टानि अन्तिमवर्गे अयमेव आसीत् नञ् प्रभृति समासाः तेषां गृहकार्यं किञ्चिदासीत् ये वक्तुमिच्छन्ति कृपया हस्तमुन्नयन्तु तत् कृत्वा अनन्तरम् अग्रे अन्यसमासान् पठामः तत्र समस्तपदं विलिख्य समासनाम लेखनीयं विग्रहवाक्यं दीयते तत्र कः समासः समस्तपदं किं कः समासः इति वक्तव्यम् न विघ्नः इति प्रथमं जयश्री भगिनी
अविघ्नः नञ् तत्पुरुष
अविघ्नः नञ् तत्पुरुष समासः सम्यक् कुत्सितः पुरुषः
कुपुरुषः अथवा कापुरुषः कुसमासः
सम्यक् कुपुरुषः अथवा कापुरुषः विशिष्टं पदं तत्र रूपद्वयं भवति अयं कु समासः महालक्ष्मी भगिनी अनृजुं ऋजुं कृत्वा
अनृजं ऋजुं कृत्वा ऋजूकृत्य गतिसमासः
उत्तमं ऋजूकृत्य सो ऋजूकृत्य इत्युक्ते टु स्ट्रेटन् इत्यर्थः दट् विच् इस् नाट् स्ट्रेट् इस् मेड् स्ट्रेट् ऋजु इत्यस्य स्ट्रेट् इत्यर्थः सो अनृजुं ऋजुं कृत्वा ऋजूकृत्य सो तत्र पूर्वपदस्य दीर्घः भवति गतिसमासः उत्तमं प्रगतः पितामहः
प्रगतः प्रपितामहः प्रादिसमासः
प्रपितामहः प्रादिसमासः पितामहः ग्राण्ड् फादर् प्रपितामहः ग्रेट् ग्राण्ड् फादर् प्रगतः इत्युक्ते ए फार्मर् पितामहः इत्यर्थः सः पूर्वं पितामहः आसीत् इदानीं ततोपि अग्रे प्रपितामहः जातः सम्यक् प्रियं वदः प्रियं वदा प्रियं वदम् उपपदसमासे लिङ्गत्रये अपि भवति अतः प्रियं वदति यदि पुरुषः तर्हि प्रियं वदः यदि स्त्री तर्हि प्रियं वदा प्रियं वदं मित्रम् इति नपुंसकलिङ्गे भवति उपपदसमासः उत्तमम् अग्रे
उचितम् आसनं क्वासनं कुसमासः
कुसमासः सम्यक् आसनम् इत्यत्र आदौ किमस्ति स्वरः अथवा व्यञ्जनम्
क्वासनम्
आसन कु आसनं यदा उत्तरपदम् आसनम् इत्यत्र आदौ स्वरः अस्ति अतः कु इत्यस्य स्थाने कत् इति भवति कदासनं
कदासनं
कदासनं कु यत्र स्वरः अस्ति तत्र कत् इति आदेशः भवति अतः कदासनं कदन्नं कदश्वः इत्यादि भवति सम्यक् अग्रे रामानुजं महोदय
नमस्ते सूत्रं धरति सूत्रधारः सूत्रधारी सूत्रधारम्
सम्यक्
उपपदसमासः
उत्तमं सूत्रधारः सूत्रधारी स्त्रीलिङ्गे सूत्रधारी सूत्रधारं त्रयमपि भवति उपपदसमासः
नेक्स्ट् वन् दुष्टः जनः दुर्जनः प्रादिसमासः
सम्यक् दुर्जनः इति प्रादिसमासः उत्तमम् उमादेवी भगिनी
नमस्कार अनेकम् एकं कृत्वा एकीकृत्य
सम्यक् सः समासः
वाट् इस् दट् च्वी समासः वाट् इस् दट् गतिसमासः
सम्यक् गतिसमासः उत्तमम् अनेकम् एकं कृत्वा एकीकृत्य एकीकृत्य इस् टु ब्रिङ्ग् टुगेदर् टु युनैट् इत्यर्थः गतिसमासः
न उपलब्धिः अनुपलब्धिः नै तत्पुरुषसमासः
नै तत्पुरुषसमासः न उपलब्धिः उपलब्धिः इत्यत्र आदौ उ इति स्वरः अस्ति अतः अन् इति भवति अनुपलब्धिः इति नै तत्पुरुषः अत्र कस्यचित् प्रश्नः अस्ति किमर्थम् एकीकृत्य इति भवति एकं कृत्य अथवा एककृत्य इति किमर्थं न भवति इति तत्र विशेषनियमः अस्ति मया उक्तम् एतत्तु च्वि इति कश्चित् प्रत्ययः अस्ति तत्र गति इति संज्ञां प्राप्तुं च्वि इति प्रत्ययः अस्ति च्वि प्रत्ययः यदा भवति तदा अकारान्तं पदं भवति चेत् ई इति भवति शुक्लीकृत्य स्वच्छीकृत्य इत्यादि अकारस्य स्थाने ईकारः भवति अन्यः स्वरः अस्ति चेत् दीर्घः भवति यथा मृदूकृत्य ऋजूकृत्य इत्यादि उकारस्य दीर्घः एवमेव इकारः अस्ति चेत् तस्यापि दीर्घः भवति इति विशेषनियमाः सन्ति तस्य कारणेन तथा भवति अग्रिमः अभ्यासः तत्र वाक्ये कानिचन समस्तपदानि सन्ति तेषां विग्रहवाक्यं विलिख्य समासः अपि लेखनीयः क्षम्यताम् अयोग्यः पुरुषो नास्ति तत्र अयोग्यः इति समस्तपदं तस्य विग्रहवाक्यं समासनाम च लेखनीयम् उमा भगिनी तत्पुरुषः सम्यक् नञ् समासः अथवा नञ् तत्पुरुषः इति वक्तुं शक्यते न योग्यः अयोग्यः प्रसिद्धं सुभाषितमस्ति अमन्त्रमक्षरं नास्ति नास्ति मूलम् अनौषधम् अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः इति सुभाषितम् सर्वेषु अक्षरेषु मन्त्रत्वं भवति एवमेव सर्वाणि मूलानि मूल इस् एनि हर्ब् और् एनी रूट् औषधं भवति सर्वेषु पुरुषेषु काचित् योग्यता भवति किन्तु तद्गुणम् अभिज्ञाय यः योजयति सः दुर्लभः इति सुभाषितं तत्र न मन्त्रम् अमन्त्रं न औषधम् अनौषधं न योग्यः अयोग्यः इति नञ् तत्पुरुषसमासाः सन्ति अग्रिमं नीचो वदति न कुरुते न वदति सुजनः करोत्येव सुजाता भगिनि श्रूयते
सुजनः शोभितजनः
शोभनः जनः
शोभनः जनः अस्तु
शोभनः जनः सुजनः प्रादिसमासः उत्तमं यथा दुष्टः जनः दुर्जनः एवं शोभनः जनः सुजनः इत्यपि प्रादिसमासः कः अर्थः एतदपि सुभाषितं भवति दुष्टजनाः वदन्ति अहं करोमि करोमि इति सर्वं वदन्ति किन्तु न कुर्वन्ति सुजनः न वदति किन्तु करोत्येव निश्चयेन कार्यं साधयति इत्यर्थः येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः क्षम्यतां पूर्णं सुभाषितं न दत्तम् इदमपि सुभाषितमेव उषा भगिनी
शुक्लीकृता अशुक्लं शुक्लं कृत्वा
अशुक्लाः शुक्लाः कृताः हंसाः
हंसाः अतः अशुक्लाः शुक्लाः कृत्वा गतिसमासः हरितीकृताः न अनहरिताः
हरिताः
अहरिताः हरिताः कृत्वा
कृताः सम्यक् उभयमपि गतिसमासः अशुक्लाः शुक्लाः कृताः शुकीकृताः एवम् अहरिताः हरिताः कृताः हरितीकृताः तत्र येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः मयूराश्चित्रिता येन सते वृत्तिं विधास्यति इति एकं सुभाषितमस्ति ही हू मेड द swans white, he who made the parrots green, and he who made the peacocks multicolored. Satah Bhagavan iti. Tatra evam bhinneshu jivishu yaha bhinna 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 gunan utpaditavan saha sarvanapi rakshati ityarthe shlokaha ashuklaha shuklaha krutaha aharitaha haritaha krutaha iti विग्रहः एतत् न मन्तव्यं सर्वत्र क्त्वा एव भवेदिति नास्ति गतिसमासे सामान्यतः क्त्वा प्रत्ययान्तस्य उदाहरणम् अधिकतया दीयते किन्तु एवं शुक्लीकृताः इत्यपि प्रयोगः कर्तुं शक्यते अत्र द्वित्राः प्रश्नाः सन्ति अत्र शोभनः जनः इत्यस्य स्थाने उत्तमः जनः इति विग्रहः तुम शक्यते वा इति चेत् शक्यते यतोहि तत्र केवलं अर्थस्य बोधनार्थम् एव सः विग्रहः वयम् अग्रे पश्यामः अश्वपदविग्रहः इति भवति अतः तस्मिन् अर्थे अन्यदपि पदं वक्तुं शक्नुमः कोऽपि दोषः नास्ति अन्यः प्रश्नः सत् जनः इति विग्रहः वक्तुं शक्यते वा इति सन् जनः सज्जनः इति पदमस्ति तत्र कर्मधारयसमासः भवति सन् इति विशेषणं जनः इति विशेष्यं विशेषणपूर्वपदकर्मधारयः तत्र सत् इति प्रातिपदिकम् अतः सज्जनः इत्यत्र सन् जनः सज्जनः इति विग्रहः भवति सः कर्मधारयसमासः अग्रे पयःपानं भुजङ्गानां केवलं विषवर्धनम् एकं क्षणं कृपया चन्द्रशेखरन् महोदय
भुजङ्गानां भुजं गच्छति तेषां भुजेन गच्छति
भुजेन गच्छति भुजेन गच्छति इति भुजङ्गः
भुजङ्गः
भुजेन गच्छन्ति इति भुजङ्गाः तेषाम् इति उपपदसमासः सो सिन्स् सर्पेण्ट्स् डू नाट् हाव् फीट् Whatever is below the head, that is treated as bhuja, even though it is not literally a shoulder. Bhujagaha, bhujangaha, bhujangamaha, iti sarvani rupani santi, sarvatra api upapada samasaha, vigrahaha samanaha, bhinna bhinna krit pratyayaha bhavanti ityataha, bhujagaha, bhujangaha, bhujangamaha, iti rupatrayam api asti. Sarvatra api bhujena gacchati ityeva vigrahaha. भुजङ्गानां पयःपानं केवलं विषवर्धनं पुनः सुभाषितमेव दुर्जनानां वयं किमपि उपकारं कुर्मः चेत् तेन कोपः एव तेषां भवति हानिः एव भवति यथा सर्पाणां पयःपानं क्षीरपानं तु विषमेव वर्धयति न तु उत्तमगुणं वर्धयति इत्यर्थः अग्रे प्रिया भगिनी निशाकरो हिमकरस्तापहृत् सुखदस्सदा
निशां करोति निशाकरः
सम्यक्
उपपदसमासः तापं हरति तापहृत् सुखं ददाति सुखदः
उत्तमम्
उपपदसमासः
सर्वेपि उपपदसमासाः सन्ति निशां करोति इति निशाकरः चन्द्रः इत्यर्थः तापं हरति इति तापहृत् हि हू टेक्स् अवे द हीट् आर् सफरिङ्ग् इत्यर्थः तापहृत् सुखदः सुखं ददाति gives happiness. So Nishakaraha, the moon, Himakaraha, in Himakaraha, it means he has cold rays. Atra kara shabdasya kiranam ityarthaha. So Himakaraha, because he has cold rays, tapahrut, he takes away the heat or suffering, sukhadaha, and gives happiness, sada. Atra, त्रयः अपि उपपदसमासाः सन्ति अग्रिमं वाक्यमस्ति चैतन्य महोदय
नमस्ते अव्यवस्थित न व्यवस्थित नैतत्पुरुषसमासः भयं करोति उपपदसमासः
उत्तमं न व्यवस्थितम् अव्यवस्थितं तत्र पुनः अग्रे समासः अस्ति अव्यवस्थितं चित्तं येषाम् इति न व्यवस्थितम् अव्यवस्थितम् इति नै समासः भयं करोति इति भयङ्करः तत्र उपपदसमासः अग्रे सुधा भगिनी
भस्मं कृतः दट् इस् भस्मीकृतः उपपदसमासः
न उपपदसमासे तिङन्तं भवति विग्रहवाक्यः इस् लैक्
सम्यक्
अभस्म भस्म कृतः भस्मीकृतः सो दट् विच् इस् मेड् इन् टु आशस् इत्यर्थः
सोपि ऐ हेव् अ क्वश्चन् हौ डु वी डिस्टिङ्ग्विश् बिट्वीन् दिस् उप ऐ हेड् अ डौट् आन् दिस् वन् distinction between upapada and gati
so the distinction I mean understanding upapada samasas fully requires knowing the sutra see upapada samasa is basically where there is a kridanta which is given specifically in association with that pada upapada so this sutra there actually this kara comes only when there is bhaya okay and similar words So, for beginner level to identify is, if there is a tinganta in the vigraha vakya, whereas there is a different form in the samasa itself. Here, the krita, in the vigraha vakya also you have krita, and in the samasa also you have krita. In that case, it is not an upapada samasa.
Okay.
So that is one way of identifying it for beginners. Okay. So So, and also this form of this shvi. Okay, so bhasmi krata, shukli krata, sakhi krata. So that pattern will also help to identify. So atmiyena iva papmana, by one's own sin, saha bhasmi krataha. I don't remember which context. It says it was reduced to ashes by one's own sin. Ityarthaha. Antimam vakyam. Anacharena malinyam atyacharena murkhata. Ramanujam Mahalaya.
Na acharena malinyam. Adigena acharena murkhata. The first one is Nayi Tatpurushaha. Second one, I'm guessing it's Pradisamasa, Adigena.
It is Pradisamasa. Vigraha, we write it in a slightly different way. So, Na Acharaha, Anacharaha, Tena, Anacharena, Ityatra, Nayi Samasaha. Ati Iti Yatra Bhavati. Tatra samanyataha atikrantaha iti vigrahe bhavati. That which has crossed or it has crossed the limits of achara. So it is more arthaha yuktaha eva. Kintu vigrahe paddhatihi evam atikrantaha acharam. That which has crossed achara, which has gone beyond the right amount of achara, that is called atyachara. That which has gone beyond achara. Acharam atikrantaha atyacharaha iti pradi samasaha. Samanyataha ati iti asti chet tadrishaha vigrahaha bhavati pradi samase. So anena tatpurushe pradhanaha prabhedaha samanya tatpurushaha karmadharayaha nai prabhratayascha asmabhihi adhitaha antimaha tatpurusha prabhedah asti dvigu samasah. Dvigu samase vastutah trayah prabhedah santi tadhitartha dviguhu uttarapada dviguhu samahara dviguhu iti. Atra kovida varge kevalam atyantam saralah asti samahara dviguhu iti. Tasya eva adhyayanam asmabhihi kriyate. Anyesham adhyayanam agre kadachit kurmaha. Tatra etadrasha samahara dvigu samase purva padam sankhya vachakam bhavati. Uttara padam subantam bhavati. So sankhya vachakayana subantasya samasaha tatra samaharaha iti vigraha vakye bhavati. Trayanam lokanam samaharaha triloki. Tatra tri loka etayoho samasaha triloki. Panchanam vatanam samaharaha panchavati. Navanam ratrinam samaharaha navaratram. Panchanam anganam samaharaha panchangam. Etani prasiddhani samahara dvigu samasasya udaharanani santi. Atra kechana amshaha vishesha amshaha nyatavyaha bhavanti. Prathamam kim samaharaha ityukte kim samaharaha ityukte samuhaha ityarthaha a group. So trayanam lokanam samaharaha. So triloki means the three worlds taken together as a group. So panchavati. So a group of five vatas, vatavrikshaha, banyan trees ityarthaha. Pancha vatavriksha, panchanam vatavrikshanam samuhaha. Sayeva samaharaha ityuchyate. Evam navanam ratrinam samaharaha, a group of nine nights is navaratram. Panchanam anganam samaharaha, a group, a collection of five angas, five components. Tatra panchange, tithihi vasaraha nakshatram योगः करणम् इत्येवं पञ्च अङ्गानि भवन्ति. अतः पञ्चानाम् अङ्गानां समाहारः पञ्चाङ्गम् इति भवति. एवं समाहारः इत्युक्ते समूहः. अयं समासः तत्रैव भवति यत्र समूहः इत्यर्थः विवक्षितः. सो समाहारद्विगु happens when the purvapada is a sankhyavachaka and we intend to convey a group of that number of things. So it can be anything. tadrishaha samahara dviguhu ityuchyate. अत्र पश्यामः चेत् समूहः सर्वदा एकः एव किल. सो अ ग्रूप्, वेन् यु आर् ग्रूपिङ्ग् डिफरेण्ट् थिङ्ग्स्, डिफरेण्ट् नम्बर् आफ़् थिङ्ग्स् इन् टु वन्, द ग्रूप् इस् वन्. इवन् दो द काम्पोनेण्ट्स् आर् मेनि, तत्र समूहः तु एकः. अतः समाहारद्विगुः सर्वदा एकवचनान्तः एव भवति. तत्र द्विवचनं वा बहुवचनं वा न भवति, एकवचनान्तमेव भवति. ओके, ततः अन्यः नियमः अस्ति लिङ्गस्य विषये. समाहारद्विगुसमासे सामान्यतः स्त्रीलिङ्गम् अथवा नपुंसकलिङ्गं भवति. वस्तुतः नपुंसकलिङ्गम् एव भवेत् समाहारः. इट् इस् अ ग्रूप् विच् डस् नाट् हेव् अ लिङ्ग. अग्रे समाहारद्वन्द्वसमासे पश्यामः. समाहारद्वन्द्वसमासः सर्वदा नपुंसकलिङ्गे एव भवति, बिकास् अ ग्रूप् इस् बै डिफाल्ट् न्यूटर्. किन्तु विशेषनियमः अस्ति इत्यतः समाहारद्विगुः कदाचित् स्त्रीलिङ्गे भवति, कदाचित् नपुंसकलिङ्गे. कथं ज्ञायते? प्रयोगमाश्रित्य एव ज्ञायते. तत्र कोऽपि नियमः नास्ति. देर् इस् नो रूल् विच् केन् स्टेट् वेर् इट् इस् स्त्रीलिङ्ग एण्ड् वेर् इट् इस् नपुंसकलिङ्ग. प्योर्ली डिपेण्डिङ्ग् आन् द प्रयोग. यथा त्रिलोकी इति स्त्रीलिङ्गे एव प्रयोगः, पञ्चवटी इति स्त्रीलिङ्गे, नवरात्रम् इति नपुंसके, पञ्चाङ्गम् इति नपुंसके. किमर्थम् इति पृच्छ्यते चेत् तत्र उत्तरं नास्ति. सो इट् इस् प्योर्ली डिपेण्डिङ्ग् आन् प्रयोग, हौ इट् इस् इन् यूस्, कथं शिष्टैः प्रयुक्तं तथा. सामान्यतः स्त्रीलिङ्गे नपुंसकलिङ्गे भवति. पुल्लिङ्गप्रयोगाः अत्यन्तं विरलाः. देर् आर् वेरी फ्यू cases where samaharadvigu is in pullinga. Okay, saptahah iti bhavati. Saptanam anham samaharah saptahah iti. Kadachit pullinge bhavati, kintu samanyatah strilinge athava napumsakalinge bhavati. Tatra abhyasadeva jnayate kutra strilingam asti, kutra napumsakalingam asti iti. अस्तु, नवरात्रि इत्युच्यते, सः तु भ्रमः एव. तत्र रात्रिशब्दः अस्ति इत्यतः प्रादेशिकभाषासु नवरात्रि इति कथ्यते. संस्कृते शुद्धं रूपं तु नवरात्रं, नवरात्रोत्सवः. नवरात्र उत्सवः, नवरात्रोत्सवः इत्येव. नवरात्रं तत्र तत्सम्बद्धः उत्सवः. नवरात्रि इति संस्कृते नास्ति, नवरात्रम् इत्येव. अवगतम्? अयं समाहारद्विगुसमासः. किञ्चिदभ्यासं कुर्मः. त्रयाणां भुवनानां समाहारः. ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु. लता भगिनी. त्रिभुवनम्. त्रयाणां भुवनानां समाहारः त्रिभुवनम्. सम्यक्. अष्टानाम् अध्यायानां समाहारः.
अष्टाध्यायी
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 प्रसिद्धः व्याकरणग्रन्थः अष्टाध्यायी तत्र अष्ट अध्यायाः सन्ति अत एव तस्याः नाम अष्टाध्यायी अष्टन् अध्याय इति भवति अष्टन् इत्यत्र नकारस्य लोपः अष्ट अध्याय सवर्णदीर्घे कृते अष्टाध्याय स्त्रीलिङ्गे प्रयोगः अस्ति इत्यतः अष्टाध्यायी पञ्चानां पात्राणां समाहारः मोहन महोदय पञ्चपात्रम् पञ्चानां पात्राणां समाहारः पञ्चपात्रम् पञ्चानां रात्रीणां समाहारः जयश्री भगिनि
नमस्ते भगिनि पञ्चरात्रम्
पञ्चरात्रम् उत्तमम् सप्तानाम् अह्नां समाहारः किशोर महोदय
सप्त
न श्रुतम् म्यूट अभवत्
सप्ताहः
सम्यक् पुल्लिङ्गे प्रयोगः अस्ति सप्ताहः अ वीक् इस् अ ग्रूप् आफ् सेवेन् डेस् अहन् शब्दः तस्य दिनम् इत्यर्थः सप्तदिनानां समाहारः सप्ताहः इत्यर्थः चतुर्णां युगानां समाहारः महादेवन् महोदय
चतुर्णां युगानां समाहारः चतुर्युगम्
महायुगम् इत्यपि कथ्यते चतुर्युगम् अ ग्रूप् आफ् फोर् युगस् कृत त्रेता द्वापर कलि इति चत्वारः युगाः सन्ति तेषां समूहः चतुर्युगम् इत्येवं समाहार द्विगुसमासः द्विगुसमासे तावदेव अस्ति वस्तुतः द्विगुसमासे ज्ञातव्याः अंशाः इतोपि बहवः सन्ति अग्रे अग्रिमस्तरे इदानीं तु सामान्यतः प्रसिद्धानि उदाहरणानि समाहारद्विगोः एव भवन्ति इत्यतः एतानि उदाहरणानि दीयन्ते एतेषाम् अभ्यासं कुर्वन्तु अग्रे अन्यविधसमासानां ज्ञानं प्राप्तुं शक्यते अनेन तत्पुरुषसमासः समाप्तः तत्पुरुषे सामान्यतत्पुरुषः कर्मधारयः द्विगुः नञ् प्रभृतयः इत्येवम् अन्तर्भेदाः सन्ति सर्वेषामपि प्राथमिकज्ञानम् अस्माभिः प्राप्तम् अग्रिमः समासः अस्ति द्वन्द्वसमासः इति द्वन्द्वसमासः द्वन्द्व इत्यस्य चार्थे द्वन्द्वः इति सूत्रमस्ति पाणिनेः सूत्रं चार्थः च इति वयम् उपयोगं कुर्मः तस्य अर्थः समावेशः अथवा योजनं यत्र भिन्नभिन्नपदार्थाः सन्ति तेषाम् एकस्यामेव क्रियायां वा एकस्मिन्नेव पदार्थे वा समुच्चयः समावेशः अथवा योजनं क्रियते सः द्वन्द्वसमासः इति सामान्यतः उच्यते द्वन्द्वसमासः द्विविधः भवति इतरेतरयोगः समाहारः इति द्वेधा द्वन्द्वसमासः भवति तत्र इतरेतरयोगः इत्युक्ते अवयवाः पृथक् पृथक् भवन्ति सो यु आर् ब्रिङ्गिङ्ग् टुगेदर् डिफरेण्ट् कोम्पोनेण्ट्स् द कोम्पोनेण्ट्स् स्टिल् रिमेन् एज् इण्डिविजुवल्स् you are still identifying them separately as individuals tatra itaretara dvandvah iti udaharanam ramascha krishnascha rama krishnau तत्र रामकृष्णौ इति द्विवचनेन एव द्वौ स्तः इति ज्ञायते. एकः रामः, अपरः कृष्णः. रामकृष्णौ गच्छतः. गच्छतः इति गमनक्रियायां रामस्य कृष्णस्य उभयोः मिलित्वा अन्वयं कुर्मः. तथापि रामः पृथगस्ति, कृष्णः पृथगस्ति इति ज्ञायते. एवमेव ब्रह्मा च विष्णुः च महेश्वरः च ब्रह्मविष्णुमहेश्वराः. रामश्च लक्ष्मणश्च भरतश्च शत्रुघ्नश्च रामलक्ष्मणभरतशत्रुघ्नाः. यावन्तः वा पदार्थाः भवन्तु, ते सर्वेपि पृथक् पृथक् एव भवन्ति चेत् इतरेतरद्वन्द्वः. समाहारद्वन्द्वे तु किं क्रियते? समूहः क्रियते. यथा समाहारद्विगुसमासे, एवं समाहारद्वन्द्वे वि बञ्च् देम् एज़् अ ग्रूप् एण्ड् द ग्रूप् इस् ऐडेण्टिफैड् एज़् वन्. इट् इस् लैक् द सेयिङ्ग् द ट्रीस् एण्ड् द वुड् आर् द फारेस्ट्. सो फारेस्ट् इस् नथिङ्ग् बट् अ ग्रूप् आफ् ट्रीस्, बट् you are not identifying them separately as individual trees, you are identifying them as a single object which is a forest. Evameva atra avayavaah samudaye antarhitaah, the different components blend to form a single mass or a single group, that is called samahara dvandha. अतः किं भवति? अत्र एकवचनम् एव भवति. पाणिपादम्, पाणी च पादौ च. टू लेग्स् एण्ड् टू हेण्ड्स्. सो एक्चुअली देर् आर् मेनी, बट् इन् पाणिपादम् वि आर् रेफरिङ्ग् टु देम् एज़् अ ग्रूप्. रथिकाश्वारोहम्, रथिकाः च अश्वारोहाः च. रथिकाः, ये रथे उपविश्य युद्धं कुर्वन्ति ते रथिकाः. ये अश्वम् आरुह्य युद्धं कुर्वन्ति ते अश्वारोहाः. तेषां समूहः रथिकाश्वारोहम्. सो इट् इस् द होल् आफ् द आर्मी विच् कन्सिस्ट् आफ् दोस् हु आर् फैटिङ्ग् इन् चारियट्स् एण्ड् दोस् हु आर् फैटिङ्ग् आन् हार्सस्. सो टुगेदर् इट् इस् अ ग्रूप् आफ् द चारियटीर्स् एण्ड् द horse riders. Putra pautram, putrascha pautrascha. So many sons and many grandsons. Together all the descendants you are referring to as one group, putra pautram. Evam samahara dvandve ekah eva samudayah bhavati, itaretara dvandve avayavah prithak prithak bhavanti iti bhedah उभयोः द्वन्द्वयोः. इदानीं पृथक् उदाहरणं पश्यामः. इतरेतरद्वन्द्वः. तत्र सुबन्तः, सुबन्तः. तत्र कोऽपि नियमः नास्ति किं भवेत् इति. द्वौ सुबन्तौ वा भवितुम् अर्हतः, अनेके वा सुबन्ताः भवन्ति द्वन्द्वसमासे. इट् केन् बि टू आर् त्री आर् फोर् आर् एज़् मेनि. तत्पुरुषसमासे अस्माभिः दृष्टं द्वयोः द्वयोः एव समासः भवति इति. किन्तु द्वन्द्वसमासे बहूनामपि पदानां मेलनम् एकस्मिन्नेव काले भवितुं शक्यते. रामः च कृष्णः च रामकृष्णौ. सीता च रामः च सीतारामौ. लक्ष्मीः च सरस्वती च लक्ष्मी सरस्वत्यौ. ब्रह्मा च विष्णुश्च देवी च ब्रह्मविष्णुदेव्यः. अत्र समासकरणे सामान्यनियमाः सन्त्येव. कः सामान्यनियमः? प्रातिपदिकं स्वीकर्तव्यम्. राम कृष्ण, सीता राम, लक्ष्मी सरस्वती, ब्रह्मन् विष्णु देवी, तत्र ब्रह्मन् इत्यत्र नकारस्य लोपः भवति ब्रह्मा विष्णु देवी अत्र प्रश्नः इदानीं किं लिङ्गं किं वचनम् इति प्रश्नः भवति तत्र अन्तिमपदस्य लिङ्गं स्वीकरणीयं यत्र द्वन्द्वः क्रियते तत्र अन्तिमपदस्य यत् लिङ्गं सो राम कृष्ण तत्र कृष्ण इत्यस्य पुल्लिङ्गम् अतः रामकृष्ण इत्यपि पुल्लिङ्गम् सीता च रामश्च इत्यत्र रामः इति पुल्लिङ्गम् अतः सीतारामौ इत्यपि पुल्लिङ्गम् लक्ष्मीश्च सरस्वती च अत्र सरस्वती इति उत्तरपदम् अन्तिमपदं स्त्रीलिङ्गे अस्ति अतः लक्ष्मीसरस्वत्यौ अत्र पश्यन्तु ब्रह्मा विष्णुः देवी अत्र पदद्वयं पुल्लिङ्गे अस्ति किन्तु अन्तिमं पदं तु स्त्रीलिङ्गे अस्ति अतः ब्रह्मविष्णुदेव्यः इति स्त्रीलिङ्गे भवति अन्तिमपदस्य यत् लिङ्गं तदेव लिङ्गं समासस्य समस्तपदस्य अपि भवति इति प्रथमः नियमः वचनं किं भवति यावन्तः पदार्थाः सन्ति तावत् वचनं भवति रामः इति एकः कृष्णः इति एकः आहत्य द्वौ अतः द्विवचनं पुल्लिङ्गं द्विवचनं सीता इति एका रामः इति एकः अतः सीतारामौ इत्यत्र द्विवचनं भवति एवं लक्ष्मीः एका सरस्वतीः एका अतः द्विवचनम् अत्र तु ब्रह्मा विष्णुः देवी त्रयः पदार्थाः सन्ति अतः बहुवचनम् अन्तिमपदस्य लिङ्गम् आश्रित्य लिङ्गं चिन्तनीयं कति पदार्थाः सन्ति इति दृष्ट्वा वचनं करणीयम् देवी देव्यौ देव्यः ब्रह्मविष्णुदेवी इति स्त्रीलिङ्गं बहुवचने ब्रह्मविष्णुदेव्यः इति भवति अवगतं वा अत्र केऽपि प्रश्नाः सन्ति वा इतरेतरद्वन्द्वसमासे अग्रे एतत् पश्यामः समाहारद्वन्द्वसमासे अत्रापि सुबन्ताः एव भवन्ति किन्तु समुदायः भवति पुत्राश्च पौत्राश्च एतेषां समाहारः पुत्रपौत्रम् काकाश्च उलूकाश्च एतेषां समाहारः काकोलूकम् काक उलूक काक क्रोस् उलूक औल्स् सो काकोलूकम् पञ्चतन्त्रे एकं तन्त्रं भवति काकोलूकीयम् इति काकानाम् उलूकानां च सम्बद्धं काकोलूकीयम् इति तत्र अर्थः काकोलूक इत्यस्मात् तत्र तद्धितप्रत्ययः अस्ति सो क्रोस् एण्ड् औल्स् इत्यर्थः पाणी च पादौ च एतेषां समाहारः पाणिपादम् हेण्ड्स् एण्ड् फीट् दासी च दासश्च अनयोः समाहारः दासी दासम् अत्र समाहारद्वन्द्वे सर्वदा नपुंसकलिङ्गम् एव भवति एकवचनम् एव भवति बिकास् इट् इस् अ ग्रूप् वाट् एवर् द नम्बर् आफ् कोम्पोनेण्ट्स् इट् इस् आल्वेस् एकवचन एण्ड् इट् इस् आल्वेस् नपुंसकलिङ्ग ओन्ली समाहारद्विगु केन् बि इन् स्त्रीलिङ्ग और् नपुंसकलिङ्ग समाहारद्वन्द्व इस् आल्वेस् इन् नपुंसकलिङ्ग ओन्ली नपुंसकलिङ्गम् एव भवति एकवचनम् एव भवति अतः द्वन्द्वसमासे समासस्य अभिज्ञानं वचनम् आश्रित्य कर्तुं शक्यते यत्र एकवचनमस्ति नपुंसकलिङ्गम् एकवचनं తత్ర సమాహారద్వంద్వః ఇతరేతర ద్వంద్వే తు మినిమం ద్వివచనం భవతి. ఇతరేతర ద్వంద్వ సిన్స్ దేర్ ఆర్ అట్లీస్ట్ టూ కాంపోనెంట్స్ ఇట్ క్యాన్ బి ఓన్లీ ద్వివచన ఆర్ బహువచన. సమాహార ద్వంద్వే ఏకవచనం భవతి, ఇతరేతర ద్వంద్వే ద్వివచనం అథవా బహువచనం భవతి. అతః తదాధారేణ ఏవ సమాసస్య అభిజ్ఞానం కర్తుం శక్యతే. ఇదానీం అత్ర అభ్యాసం కుర్మః. సమస్త పదం వక్తవ్యం. చైత్రశ్చ వైశాఖశ్చ. చైత్రః వైశాఖః ఇతి ఋతుద్వయం. షడ్ ఋతవః భవంతి, తత్ర ఋతుద్వయం అస్తి. చంద్రశేఖరన్ మహోదయ.
చైత్ర వైశాఖ సమస్త అత్ర చైత్ర వైశాఖః చైత్ర వైశాఖౌ ఇతి ఉక్తవ్యం వా?
సమ్యక్ సమ్యక్. సో వైశాఖః ఇతి పుల్లింగం, అతః పుల్లింగం ద్వివచనం చైత్ర వైశాఖౌ. గంగా చ యమునా చ. అవినాష్ మహోదయ.
గంగా యమునా యమునే. గంగా యమునే.
సమ్యక్. గంగా యమునే. యమునా ఇతి స్త్రీలింగం, తస్య ద్వివచనం గంగా యమునే. ఉత్తమం. శివశ్చ పార్వతీ చ. ఉమా భగిని. ఉమా భగిని ఇట్స్ సెల్ఫ్ మ్యూటెంట్. పార్వతీ ఇత్యస్య ద్వివచనం శివ పార్వత్యౌ. ఉత్తమం. పార్వతీ పార్వత్యౌ శివ పార్వత్యౌ ఇది స్త్రీలింగే ద్వివచనం. లక్ష్మీశ్చ నారాయణశ్చ. రఘుపతి మహోదయ.
లక్ష్మీ నారాయణౌ.
లక్ష్మీ నారాయణౌ. అత్ర నారాయణః ఇతి పుల్లింగే ద్వివచన అంతం లక్ష్మీ నారాయణౌ. ఉత్తమం. ఘటశ్చ పటశ్చ అనయోః సమాహారః. రామనాథన్ మహోదయ. సమాహారః ఇత్యుక్తే ఏకవచనం నపుంసకలింగం. ఘటపటం. సమ్యక్. యత్ర సమాహారః తత్ర నిస్సందేహం నపుంసకలింగే ఏకవచనం ఘటపటం. ఘటశ్చ పటశ్చ. సో ఘట ఇస్ అ పాట్, పట ఇస్ అ క్లాత్. తర్కశాస్త్రే ఘటః పటః ఇతి ప్రసిద్ధం. తత్ర తయోః సమాహారః ఘటపటం. అత్ర విగ్రహవాక్యే సర్వనామపదం కిమపి ఉపయోక్తుం శక్యతే. ఘటశ్చ పటశ్చ తయోః సమాహారః, ఏతయోః సమాహారః, అనయోః సమాహారః, చింతా నాస్తి. అహిశ్చ నకులశ్చ అనయోః సమాహారః. శ్రీమతి భగిని. యు హావ్ టు అన్మ్యూట్ యువర్సెల్ఫ్.
అహిశ్చ నకులం. అహిశ్చ నకులం.
అహిశ్చ ఇత్యత్ర అహిహి. అహిహి ఇత్యుక్తే సర్పః. తత్ర ప్రాతిపదికం కిం?
అహిహి
ప్రాతిపదికం.
అహి
అహి అహి
అహి నకులం.
అహి నకులం. సమ్యక్. అహి నకులం. అహిహి ఇత్యుక్తే సర్పః. హరి శబ్దవత్ ఇకారాంతః పుల్లింగః. అహిహి నకులః స్నేక్ అండ్ మంగూస్. సో అహినకులం ఇది భవతి సమాహారః. उत्तमम् इदानीं विग्रहवाक्यं वक्तव्यं कानिचन वाक्यानि सन्ति तत्र यत् यः समासः अस्ति अत्र द्विगुः अपि भवति द्वन्द्वः अपि भवति समाहारद्वन्द्वस्य समाहारद्विगोः कः भेदः यत्र संख्या अस्ति तत्र समाहारद्विगुः यत्र तु पृथक् पृथक् पदार्थद्वयम् अस्ति तत्र समाहारद्वन्द्वः इति अत्र सर्वेषां समासानाम् उदाहरणानि सन्ति नारदमहर्षिः त्रिभुवने सञ्चरितुं शक्तः त्रिभुवने इत्यस्य विग्रहः उमादेवी भगिनी यु हाव् टु अन्म्यूट् युर् सेल्फ्
त्रयाणां भुवनानां महारः त्रिभुवनं तस्मिन् वि हाव् टु तस्मिन्
सम्यक् कः समासः
द्विगुसमासः
द्विगुसमासः उत्तमं त्रिभुवने इत्युक्ते सः त्रिषु अपि लोकेषु सञ्चरितुं शक्तः इत्यर्थः त्रयाणां भुवनानां समाहारः त्रिभुवनं तस्मिन् द्विगुसमासः विनायकः त्रिलोकीं परिक्रान्तवान्
त्रयाणां लोकानां ताम्
त्रयाणां लोकानां
ताम् इति भवेत् किं
तां भवेत् समाहारः त्रयाणां लोकानां
समाहारः त्रयाणां लोकानां समाहारः तां द्विगुसमासः
उत्तमम् त्रयाणां लोकानां समाहारः त्रिलोकी ताम् सो सः ही वेण्ट् अराउण्ड् द त्री वर्ल्ड्स् प्रसिद्धा कथा अस्ति किल सः पार्वती परमेश्वरौ एव प्रदक्षिणीकृत्य त्रिलोकी सञ्चारं समापितवान् ब्रह्म विष्णु महेश्वराः त्रिमूर्तयः सन्ति
विष्णुः च महेश्वरः च
सः समासः
इतरेतरद्वन्द्वः
उत्तमम् इतरेतरद्वन्द्वः ब्रह्मा च विष्णुः च महेश्वरः च तत्र पृथक् पृथक् अपि लेखितुं शक्यते विष्णुः च इति सन्धिं कृत्वा विष्णुश्च इत्यपि लेखितुं शक्यते ब्रह्मा च विष्णुः च महेश्वरः च ब्रह्म विष्णु महेश्वराः इतरेतरद्वन्द्वः राजकुमारी दासीदासेन सह पतिगृहं गता महादेवन् महोदय
दासी च दासश्च दासी दासौ
एकवचनमस्ति
दासी दासः येन दासी दासेन
समाहारः एकवचनमस्ति इत्यतः समाहारः कर्तव्यः
दासी च दासश्च अनयोः समाहारः दासी दासं तेन दासी दासेन
आम् समाहारद्वन्द्वः तत्र एकादासी एकः दासः इत्यपि भवितुमर्हति अथवा दास्यश्च दासाश्च बहवः दास्यः राजकुमारी सा अतः दास्यः च दासाः च तत्तु ज्ञातुं न शक्यते एकः वा बहवः वा इति तेषां समाहारः दासीदासम् इति समाहारद्वन्द्वः तेन सह सो द प्रिन्सेस् वेण्ट् टु हर् हस्बेण्ड्स् हौस् अलाङ्ग् वित् द ग्रूप् आफ् हर् सर्वेण्ट्स् दास्यः दासाः तेषां समाहारः द मोमेण्ट् यु सी एकवचन यु हाव् टु पुट् समाहार यत्र एकवचनान्तम् अस्ति तत्र समाहारः वक्तव्यः एव यतोहि तद्विना एकवचनत्वं न भवति. लक्ष्मीसरस्वत्यौ धनस्य विद्यायाः च अधिदेवते. अनन्तकृष्णन् महोदय.
लक्ष्मीश्च सरस्वती च लक्ष्मीसरस्वत्यौ इतरेतरद्वन्द्वः.
सम्यक्. लक्ष्मीश्च सरस्वती च. लक्ष्मीशब्दे विशेषः विसर्गः भवति जानीयुः. यथा सामान्यतः ईकारान्ते नदी नद्यौ नद्यः गौरी गौर्यौ गौर्यः इति. किन्तु लक्ष्मी शब्दे विशेषः लक्ष्मीः लक्ष्म्यौ लक्ष्म्यः. अतः लक्ष्मीः च सरस्वती च लक्ष्मीसरस्वत्यौ इतरेतरद्वन्द्वः. वैयाकरणाः अष्टाध्यायीं परिशीलयन्ति. रामनाथन् महोदय.
अष्टानाम् अध्यायां ताम्
अष्टानाम् अध्यायानाम्
अध्यायानां तं न तं
ग्रूप्
ग्रूप् समाहारः ताम्
ताम् अष्टानाम् अध्यायानां समाहारः अष्टाध्यायी ताम् पठन्ति इत्यर्थः. उत्तमम्. भक्तः सप्तशत्याः पारायणं करोति. सप्तशती दुर्गा सप्तशती इति अत्यन्तं प्रसिद्धा अस्ति. राधा भगिनी. You have to unmute yourself.
Satanam, Satanam.
Hmm.
Samaharaha.
Hmm. Hmm. Tasyaha. Uttamam. Satanam, Satanam, Samaharaha, Saptashati. Tatra, Sapta Shatani Santi. 700. वर्सस् अतः सप्तशती. सप्तानां शतानां समाहारः सप्तशती. तस्याः सप्तशत्याः. वत्स पाणिपादं प्रक्षाल्य आगच्छ. बहुवारम् इदं पदं दृष्टं किन्तु अस्य समासस्य बहु प्रसिद्धेषु उदाहरणेषु इदम् अन्यतमम्. अतः मोहनन् महोदय. पाणिपादम्
पाणिपादम् पाणि च पाद उच समूहः
समाहारः एतेषां समाहारः. पाणि च पादौ च एतेषां समाहारः पाणिपादम्. हस्तौ पादौ च प्रक्षाल्य आगच्छ इत्यर्थः. मानवः क्रोधोद्वेगभयैः विमुक्तः भवेत्. लता भगिनि.
क्रोधः क्रोधश्च उद्वेगश्च भयश्च
भयं
भयं च तैः
तैः. उत्तमम्. क्रोधश्च उद्वेगश्च भयञ्च. क्रोधोद्वेगभयानि तैः क्रोधोद्वेगभयैः. उत्तमम्. जयश्री भगिनी. भीमार्जुनौ उभावपि शूरौ एव.
इतरेतरद्वन्द्वः. भीमश्च अर्जुनश्च.
सम्यक्. भीमश्च अर्जुनश्च भीमार्जुनौ इतरेतरद्वन्द्वः. गुरवे फलपुष्पं समर्पयामः. प्रिया भगिनी.
फलश्च पुष्पश्च एतेषां समाहारः.
नपुंसकलिङ्गशब्दाः.
సమాహారద్వంద్వ
ఫలం చ అథవా
ఫలం చ పుష్పం చ ఏతేషాం సమాహారః
యది ఏకవచనం ఉచ్యతే ఫలం చ పుష్పం చ ఏతయోః సమాహారః
ఓ
సామాన్యతః ఏకం ఫలం ఏకం పుష్పం ఇతి న దీయతే అతః
ఫలాని చ పుష్పాణి చ ఏతేషాం సమాహారః
ఉత్తమం ఫలాని చ పుష్పాణి చ ఏతేషాం తేషాం వా సమాహారః ఫల పుష్పం తత్ ఉత్తమం ధర్మార్థ కామ మోక్షాః పురుషార్థాః ఉమాదేవి భగిని
ధర్మశ్చ అర్థశ్చ కామశ్చ మోక్షశ్చ
సమ్యక్
మోక్షశ్చ సో ఇది ఐ యామ్ రియలీ నాట్ ఏబుల్ టు ఫైండ్ అవుట్ సమాహార అండ్ ఇతరేతర ద్వంద్వ హౌ టు ఐడెంటిఫై ఐ యామ్ నాట్ ఏబుల్ టు
ఇఫ్ ఇట్ ఇస్ ఏకవచన ఇట్ ఇస్ సమాహార ద్వంద్వ ఇఫ్ ఇట్ ఇస్ ద్వివచన ఆర్ బహువచన ఇట్ ఇస్ ఇతరేతర ద్వంద్వ
ఓకే దెన్ ఇతరేతర ద్వంద్వ
సమ్యక్ సో అత్ర సో ఇఫ్ యు సీ రైట్ హియర్ సో భీమార్జునౌ ద్వివచన సో ఇతరేతర ద్వంద్వ ఫల పుష్పం ఏకవచనం సో సమాహార ద్వంద్వ హియర్ ధర్మార్థ కామ మోక్షాః బహువచన సో ఇతరేతర ద్వంద్వ
థ్యాంక్ యూ
సో సమాహారే సర్వదా ఏకవచనం భవతి అన్యద్వచనం అస్తి చేత్ నిశ్చయేన ఇతరేతర ద్వంద్వ ధర్మశ్చ అర్థశ్చ కామశ్చ మోక్షశ్చ ధర్మార్థ కామ మోక్షాః అద్య వయం ద్విగు సమాసం ద్వంద్వ సమాసం చ అధీతవంతః తత్ర సమాహార ద్విగుః తత్ర సంఖ్యావాచకం పూర్వపదం భవతి సువంతం ఉత్తరపదం భవతి సమస్త పదం ఏకవచనాంతం భవతి సామాన్యతః స్త్రీలింగే అథవా నపుంసకలింగే భవతి త్రయాణాం లోకానాం సమాహారః త్రిలోకీ త్రయాణాం భువనానాం సమాహారః త్రిభువనం ఇత్యాది ఉదాహరణాని భవంతి ద్వంద్వ సమాసే ప్రభేదద్వయం అస్తి ఇతరేతర ద్వంద్వః సమాహార ద్వంద్వః ఇతి ఇతరేతర ద్వంద్వే సుబంత ద్వయం అథవా బహవః సుబంతాః భవంతి ఉత్తరపదస్య ఉత్తరపదం ఇత్యుక్ అంతిమం యత్ పదం తస్య లింగం సమస్త పదస్య భవతి కతి పదార్థాః సంతి ఇతి దృష్ట్వా వచనం భవతి ద్వివచనం అథవా బహువచనం భవతి రామకృష్ణౌ దుర్గాలక్ష్మీ సరస్వత్యః ఇతి ఉదాహరణం భవతి సమాహారద్వంద్వే అపి సుబంతాః భవంతి ద్వౌ వా బహవః వా భవంతి తత్ర సమస్త పదం ఏకవచనే ఏవ భవతి నపుంసకలింగే ఏవ భవతి పాణిపాదం ఘటపటం ఇత్యాది ఉదాహరణాని భవంతి ఏవం ద్వంద్వ సమాసః ద్విగు సమాసశ్చ అధీతః శ్వః వర్గే రఘువంశస్య అధ్యయనం అనువర్తయామః కేపి ప్రశ్నాః సంతి చేత్ హస్తం ఉన్నయంతు తావతి లిఖితాః ప్రశ్నాః లతా భగిని ప్రశ్న అస్తి వా న శ్రూయతే I couldn't hear you. It got cut in between. Hari Om. Vadat. It's very low.
In the word Dashavatara.
Hmm.
The word Dashavatara.
Hmm.
Since the avatars are all different and not together, it belong to any of these samasas?
Dashavataraha is a karmadharya samasa. Okay. So I'll come to it shortly. That is one point I wondered whether to include or not, but I'll tell you just a moment. I'll look at the other questions and come back to this. It's a very important this one. Mahadevan Mahalaya.
I have one question in the Samahara Dvandva. Should there be a relationship, some sambandha between the items that we put together? Well, for instance, you say kakashcha, kulu kashcha. But can it be any two items? Or should there be a sambandha?
Can be. See, sambandha is through in dvandva samasa, in any samasa, there should be a sambandha. This particular case, there is, you have to, whenever you do a samasa, you are together, especially dvandva samasa, you are together applying them to some kriya. Okay. So, tadrishaha sambandha, but otherwise, as in, there is no rule as in of a particular word. Yatra militva kutrachid anvayaha kriyate tatra dvandva samasah bhavati. But there are specific rules where it will be compulsorily samahara dvandva. Samanyataha, I mean for a general this one, you can either do itaretara or samahara according to your wish. If you want to represent two objects as, for example, ghatascha patascha, ghata patau. If you want to represent as two individuals, you can say ghata patau. Or if you want to represent it as a group, you can say it as ghatapatam. So, samanyataha vivaksha mashritya itaretara dvandvahava samahara dvandvahava bhavati. Kintu keshuchit vishishta padeshu samaharaha eva bhavati itaretara dvandvaha na bhavati. So, tadartham sutrani santi. These things like kakolukam or ahinakulam, yesham virodhaha shashvatikaha, where there is a natural enmity between two things, like say snake and mongoose or cat and mouse. So such things we do only samahara, you cannot do itaretara. Saha niyamaha asti. Tatra sambandhaha tesham parasparam virodhaha eva sambandhaha. Evameva.
Shuklam ashuklam shukli krutva vise ashuklam shuklam krutva shukli krutya. But it can also be shuklam ashuklam krutva. Is there a
no?
That is not done, isn't it?
That is not there in prayoga as in. In this particular context, no. It is because abhuta tadbhava. So that which was not that is made that. Tatraiva chvi prateya bhavati, tatraiva gati samya bhavati. Taha tadrishaha prayogaha nasti yavadaham janami. Ramanujam Mahodaya.
Okay. Dushta janaha. Can we also make like dushjanaha visheshana purvapada karmadaraya?
You can make dushtajanaha. Dushtaha janaha, dushtajanaha iti bhavitum arhati. Dushjanaha iti na bhavati. Tatra dur iti upasarge, tatra repaha eva shruyate sakaraha na bhavati. Ataha pradi samasaha yatra dur iti upasargasya athava pradehe samasaha kriyate tatra durjanaha ityeva.
Kintu
dushtaha janaha dushtajanaha iti visheshana purvapada karmadharayaha bhavati.
Then for dushtaha the pratipadigam is not dushta. दुष्ट
दुष्ट इति पदस्य प्रातिपदिकं दुष्ट इत्येव
ओके 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 वेरी गुड थैंक यू
अत्र अन्यः कश्चित् प्रश्नः अस्ति प्रत्येकम् इति प्रातिसमासः वा इति प्रत्येकम् इति अव्ययीभावसमासः तद्विषये प्रायः अग्रिमवर्गे पश्यामः तदा अस्य प्रश्नस्य उत्तरं ददामि इफ् दट् इस् आल् ऐ लैक् टु गो बेक् टु दट् क्वश्चन् दशावताराः वस्तुतः सङ्ख्यावाचकानां समासे कश्चित् क्लेशः अस्ति it is an error to think that if wherever there is sankhya or a number in purva pada it is not a dvigu samasa okay yatra yatra purva pade sankhya asti tatra sarvatra dvigu samasaha iti na okay so sankhya vachakana there are different kinds of samasas which are possible okay so one is the dvigu samasa which we have seen yatra samaharah bhavati maya uktam anyeshu api artheshu asti dvigu samasah iti kintu prasiddhani udaharanani when you are trying to make a group tatra samahara dvigu samasah bhavati adya yani udaharanani drishtani tribhuvanam panchangam ityadi udaharanani tatra samaharah asti tatra dvigu samasah यत्र समाहारः नास्ति तत्र कर्मधारयसमासः अपि भवति उदाहरणं यद् दृष्टं दशावताराः एतत्तु दश इति विशेषणम् अवतार सो संख्या इस् आल्सो अ कैण्ड् आफ् क्वालिफैयिङ्ग् ऐडेण्टिटि अतः दशावताराः पञ्चपाण्डवाः चतुर्वेदाः एतादृशेषु कर्मधारयसमासः भवति सो वेर् इट् इस् नाट् अ समाहार तादृशस्थले कर्मधारयसमासः भवति दश अवताराः दशावताराः पञ्चपाण्डवाः पञ्चपाण्डवाः चत्वारः वेदाः चतुर्वेदाः इति समासः भवति सः कर्मधारयसमासः किन्तु तत्र एकं स्मर्तव्यम् अयं कर्मधारयसमासः प्रसिद्धवस्तुषु एव भवति उदाहरणार्थं दश अवताराः इत्युक्ते सर्वे जानीमः मत्स्यः कूर्मः इति दश अवताराः ये प्रसिद्धाः ते एवं पञ्च पाण्डवाः सो इट् इस् ओन्ली रेफरिङ्ग् टु स्पेसिफिक् आब्जेक्ट्स् सो युधिष्ठिर भीमा नकुल एट्सेट्रा सिमिलर्ली चतुर्वेदाः तादृशस्थले एव कर्मधारयसमासः भवति वयं सामान्यतः वदामः यथा पञ्चबालकाः के पञ्चबालकाः कोऽपि न जानाति इट् केन् बि एनी फैव् बाय्स् इट् इस् नाट् स्पेसिफिकली फैव् बाय्स् तत्र समासः न भवति केवलं सामान्यतः सङ्ख्यावाचकम् अन्यत् किमपि भवतु सप्त नगराणि एनी सेवेन् सिटीस् एनी सेवेन् राण्डम् इट्स् नाट् स्पेसिफिक् सो इन् सच् केसस् देर् इस् नो समास अतः पञ्चबालकानाम् इति न वक्तव्यं पञ्चानां बालकानां सप्तसु नगरेषु इति पृथक् पृथक् एव प्रयोगः क्रियते कर्मधारयसमासः भवति कुत्र भवति प्रसिद्धाः पदार्थाः यत्र सन्ति सप्तर्षयः इत्युक्ते ते एव सप्तर्षयः इट् इस् नाट् एनी सेवेन् सेजस् आर् नाट् सप्तर्षयः वेर् इट् इस् स्पेसिफिकली रेफरिङ्ग् टु फेमस् स्पेसिफिक् थिङ्ग्स् तत्र कर्मधारयसमासः भवति अन्यत्र व्यस्तप्रयोगः एव भवति ओके अतः सङ्ख्यावाचकानां समाहारद्विगुः भवति कर्मधारयः भवति कदाचित् बहुव्रीहिसमासः अपि भवति यु केन् आल्सो हाव् अ बहुव्रीहिसमास इन् केस् आफ् सङ्ख्यावाचक फार् एक्साम्पल् यु हाव् समथिङ्ग् लैक् त्रिपत्नीकः तिस्रः पत्न्यः यस्य हि हू हेज् त्री वैव्स् त्रिपत्नीकः इत्यादि बहुव्रीहिः अपि भवति. सो द पासिबिलिटी आफ् समासस् वेन् देर् इस् अ संख्यावाचक इस् वन् इस् समाहारद्विगु, सेकेण्ड् इस् कर्मधारय, थर्ड् इस् बहुव्रीहि. When it does not fall into any of these categories, that is when you don't intend a group, when it is not famous specific object, or when it is not bahuvrihi, you have to use the sankhyavachaka separately as a separate word and there is no samasa. Okay. Iti sangraha sankhyavachaka naam vishaye agre kimapi vishishya gnyatavyam chet vakshyami. हा सर्वत्र भवति पञ्चभूतानि इत्यत्र कर्मधारय समासः पञ्चभूतानि पञ्चभूतानि सप्त ऋषयः सप्त ऋषयः प्रसिद्धानि वस्तूनि यत्र सन्ति सो तत्र कर्मधारय समासः भवति. अन्ये केऽपि प्रश्नाः सन्ति वा? अस्ति चेत् Oh, I'm extremely sorry. I didn't note the time. Right now it's already 9:30. Very sorry.
What about Panchangam? That is also specific, no? Angam.
Yes, but there a group is also intended. Panchanam, Anganam, Samaharaha. Since it a group is intended, it is Dvigu. If you don't want to make it a group, you can say panchangani. If it is specific five angas, you can say panchangani with karmadharaya. When we are using it as panchangam in ekavachana, in samahara, then it is a samahara. Whereas in karmadharaya, it will not be ekavachana, it will be bahuvachana. What kind of karmadharaya? Visheshana purva pada karmadharaya. Sankhyavachakam visheshanam. Astu atra sthagayamaha shvaha pashyamaha. Gurureva gatir gurumeva bhaje gurunaiva sahasminamo gurave na guroh paramam shishurasmi gurur matirasti gurau mama pahi guru.